तथ पुंसभूध्याय श्री भगवान वाच ओर्भमोलमथ शाख माश्वत्थं प्राहुरव्ययम् फन्दांसि यस्य पर्णानि यस्तौ वेद स वेद मे अधस्तोऽयं प्रसितास्तस्य शाख गुणस्य वृद्धाविषय ूतानि कर्मानुबन्धीनि मनुष्यलोके न रूपमस्ये रथोपलभ्यते नान्तो सादिर्न च सम्प्रतिष्ठा अश्वत्थमेयूढमूल न सङ्गशस्येन गृहेण चेत्वा ततः पदं तत्परिमार्जितव्यं यस्मिन् गतालनिवर्तन्ति भूय तमेव चार्यम् पुरुषं प्रपद्ये यत प्रवृत्ते प्रसिता पुरा निर्माणमोहाजितसङ्गदोषा अध्यात्मदित्या विनिवृत्तकामा वन्दैर्विमुक्त्वा सुखदुःखसंज्ञै प्रसंज्ञमूढाः पदमप्रयन्त न तद्भासदति सूर्यो न शशाङ्को न पावको यद्गत्वा नैव तन्ते तद्धाम परमं मम नमैवांशो जीवलोके जीवभूतः सनातन मनसस्थानेन्द्रियाणि प्रकृतिस्थानि कर्षति शरीरं यदवाप्नोति यच्चाप्योत्क्रामतीश्वर विहित्वैतानि संयाति वायुर्गन्धानि वासया श्रोत्रं चक्षुः स्पर्शनं च रसनघ्राणमेव च अभिष्ठाय मनस्ताय विषयानुपसेवते योत्कामन्तं स्थितं वापि संज्ञानं वा गुणान्वितम् विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुष यतन्तो योगिनस्तैनं पश्यन्त्यात्मन्यवस्थितं यतन्तो प्रकृतात्मानो नैनं पश्यन्त्यचेतस यदा दैत्यगतं त्वेजो जगद्भासगते किलं यच्चन्द्रमसि यच्चाग्नो तत्तेजो विद्धि मामकम् गामावेश्यति भूतानि धारयाम्यहमोदसा उष्णामेषौषधीः सर्वा सोमो त्वरसात्मक अहङ्गैश्वनरो भूत्वा प्राणिनां देहमाश्रित प्राणापानसमायोक्त यजाम्यन्नं चतुर्विधम्
सर्वस्य जाहु
वायिनौ पुरुषौ लोके क्षरस्याक्षर एव च क्षरः सर्वाणि भूतानि पुष्टस्तु क्षर उच्यते उत्तमः पुरुषस्तन्यः परमात्मे तु दारिव यो लोकत्रयमावेश्य विभार्य व्यय ईश्वर यस्मात्क्षरमतीतोः माक्षरादपि चोत्तम कथोऽस्मि लोके विले च प्रसित पुरुषोत्तम यो मामेवमश्नुयो जानाति पुरुषोत्तमम् स सर्वविभजति माम् सर्वभारेण भारत इति गुह्यतमम् शास्त्र निर्मोक्तम् मयानव एतद्बोध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत कृतकृत्यश्च भारत ॐ तत्सत् श्रीमद्भगवद्गीतासु उपनिषत्सु गुरुविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगानां पञ्चदशः।